द्विधाकृत्य प्रज्ञाक्रकचदलनाद्बन्धपुरुषौ नयन्मोक्षं साक्षात् पुरुषमुपलम्भैक नियतम् इदानीमुन्मज्जत् सहज परमानन्द सरसं परं पूर्णं ज्ञानं कृत सकल कृत्यं विजयते।